इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः आदौ मुख्य वार्ताः प्रधानमन्त्री नरेन्द्र मोदी तस्य समकक्षीयः ब्रिटेनस्य प्रधानमन्त्री कीर स्टार्मर इत्यसौच अद्य प्रौद्योगिकी रक्षा कृत्रिम बुद्धिमता सतत विकास नवीकरणीयोर्जा चेत्यादिभिः विषयैः सह अन्य विशिष्ट विषयेष् विशद चर्चाम् अकृताम् भारत ऑस्ट्रेलिया देशौ द्वयोः देशयोः मध्ये सेनयोः सुदृढीकरणम् उद्दिश्य महत्वपूर्ण रक्षा सन्धिष् हस्ताक्षरं कृतवन्तौ निर्वाचनायोगेन राजनीतिकदलानि बिहार विधानसभायाः आगामीष् निर्वाचनेष् विधानसभायाः उपनिर्वाचनेष् च प्रचारावधौ प्रतिद्वन्द्विदलानि प्रत्याशिन च विरुध्य आर्टिफिशियल इंटेलिजेंस इति कृत्रिम बुद्धिमत्तायाः उपयोगं न कर्तुं निर्दिष्टानि हंगेरियन उपन्यासकारः पटकथा लेखकः च लास जलो क्रास्जनाहोर्काई इत्येषः पञ्चविंशत्युत्तर द्विसहस्रतम वर्षस्य साहित्यस्य नोबेल पुरस्कारं प्राप्तवान् अपि च महिलानाम् एकदिवसीय क्रिकेट विश्व चषके विशाखापत्तनम् इत्यत्र भारत दक्षिणाफ्रिका दलयोर्मध्ये क्रीडास्पर्धा प्रचलति अथ वार्ताः विस्तरेण प्रधानमन्त्री नरेन्द्र मोदी तस्य समकक्षीयः ब्रिटेनस्य प्रधानमन्त्री कीर स्टार्मरः इत्यसौ च अद्य प्रौद्योगिकी रक्षा कृत्रिम बुद्धिमत्ता सतत विकास नवीकरणीयोर्जा चेत्यादिभिः विषयैः सह अन्य विशिष्ट विषयेष् विशद चर्चाम् अकृताम् द्वयोः मध्ये मुम्बय्यां प्रतिनिधिमण्डलस्तरीया वार्ता अभवत् अद्य अपराह्णे मुम्बय्यां ब्रिटेनस्य प्रधानमन्त्रिणा कीर स्टार्मरः इत्यनेन सह एकं संयुक्त वार्ताहर सम्मेलनं सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् द्वावेव देशौ वैश्विक स्थिरतायै आर्थिक प्रगत्यै च प्रतिबद्धौ स्तः भारत ब्रिटेनयोः मध्ये व्यापकार्थिकं व्यापारिकं च साहमत्यं प्रकाशयन् श्रीमोदी प्रोक्तवान् यत् अनेन युवानः आजीविकायाः नवीनावसरान् लप्स्यन्ते द्वयोः देशयोर्मध्ये च व्यापारस्य विस्तारो भविष्यति
प्राइम मिनिस्टर स्टार्मर के नेतृत्व में भारत और यूके के रिश्तों में उल्लेखनीय प्रगति हुई है इस साल जुलाई में मेरी यूके यात्रा के दौरान हमने ऐतिहासिक कॉम्प्रिहेंसिव इकोनॉमिक एंड ट्रेड एग्रीमेंट सीटा पर सहमति बनाई इस समझौते से दोनों देशों के इम्पोर्ट कॉस्ट में कमी आएगी युवाओं के लिए रोजगार के नए अवसर बनेंगे व्यापार बढ़ेगा और इसका लाभ हमारे उद्योग तथा उपभोक्ता दोनों को ही मिलेगा
ब्रिटेनस्य प्रधानमन्त्री कीर स्टार्मरः अकथयत् यत् भारत ब्रिटेन देशो भविष्याधारितस्य एकस्य आधुनिक सहकार्यस्य निर्माणं कुर्वन्तो स्तः भारत ब्रिटेन व्यापकार्थिक व्यापारिक सन्धिः ऐतिहासिकी अस्ति इति सम्बोधयन् श्री स्टार्मरः अकथयत् यत् टैरिफ शुल्केषु अपचित्या परस्पर व्यापारिकापणेषु सक्रिय भूमिका वर्धनेन च विकासोन्मुखा गतिः भविष्यति आजीविकायाः नवीनावसराः च उत्पत्स्यन्ते अनन्तरं प्रधानमन्त्री नरेन्द्र मोदी स्वकीयेन ब्रिटिश समकक्षेन कीर स्टार्मरः इत्यनेन सह सीईओ फोरम इत्येतत् सम्बोधितम् अकरोत् अस्मिन् अवसरे श्रीमोदी प्रोक्तवान् यत् एतत् वर्षम् अभूतपूर्वमस्ति यदा वैश्विकानिश्चिततायाः मध्ये भारत ब्रिटेन देशयोः सम्बन्धाः स्थिराः सुदृढाः चाभवन् रक्षामन्त्रिणः राजनाथसिंहस्य ऑस्ट्रेलिया यात्रावधौ भारत ऑस्ट्रेलिया देशौ महत्वपूर्ण रक्षा सन्धिष् हस्ताक्षरं कृतवन्तौ राजनाथसिंहेन ऑस्ट्रेलियायाः उपप्रधानमन्त्रिणः एवं रक्षामन्त्रिणः रिचर्ड मार्लेस इत्यस्य उपस्थितौ एतेषु रक्षासन्धिष् हस्ताक्षरं कृतम् राजनाथसिंहेन कैनबरायां स्वसमकक्षेण रिचर्ड मार्लेस इत्यमुना सह वार्ता कृता अत्रावसरे रक्षामन्त्रिणा राजनाथसिंहेन प्रोक्तं यत् वार्ता आतंकवादो युगपत् नैव भवितुम् अर्हत उभौ नेतारौ रक्षोद्योग साइबर सुरक्षा समुद्री सुरक्षा क्षेत्रीय समाह्वानै भारत ऑस्ट्रेलिया देशयो रक्षा सहयोगस्य पूर्णविस्तारस्य समीक्षाम् अकृताम् ऑस्ट्रेलिया देशस्य रक्षामन्त्रिणा प्रोक्तं यत् भारतेन सह नव हस्ताक्षरित रक्षासन्धयः उभयो देशयोः मध्ये सशस्त्र बलेषु सहभागितां दृढीकरिष्यति ऑस्ट्रेलिया भारतयोः रक्षामन्त्रिणो संयुक्त वक्तव्यानुसारं एतस्मिन् उपवेशने द्विपक्षीय रक्षा विस्तारस्य सहैव परामर्श सहयोगयोः संवर्धनार्थं उभाभ्यामपि प्रतिबद्धता प्रकटिता प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकायाः राष्ट्रपतिना डोनाल्ड ट्रम्पः इत्यनेन प्रस्तावितायाः शान्तियोजनायाः प्रथमचरणस्य अन्तर्गतम् इज़राइल हमासयोः मध्ये हस्ताक्षरितस्य सहमतिपत्रस्य स्वागतं कृतमस्ति एकस्मिन् सामाजिक सन्देशे श्रीमोदी आशां प्रकटितवान् यत् बन्धकानां विमोचनेन गाजा क्षेत्रस्य जनेभ्यः मानवीय सहायतां वृद्धिना च ते लाभान्विता भविष्यन्ति। अनेन स्थायि शान्त्याः मार्गमपि प्रशस्तं भविष्यति। सः प्रोक्तवान् यत् एतत् सहमत्यम् इज़राइल देशस्य प्रधानमन्त्रिणः बेंजामिन नेत्यानहु इत्यस्य सुदृढ नेतृत्वस्य अपि प्रतीकमस्ति। इतः पूर्वम् अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्पः घोषणाम् अकरोत् यत् इज़राइल हमासो गाजा क्षेत्रे युद्धविरामं कर्तुं बन्धकान् विमोचयितुं च अमेरिकायाः शान्ति योजनायाः प्रथमचरणे सहमतो अभवताम्, येन वर्षद्वय पूर्वस्य युद्धं समाप्तम् अभवत्। अवधेयं यत् ट्रम्प वर्यस्य इयं घोषणा मिस्र देशस्य शर्म अल शेख इत्यत्र एकस्य दिवसस्य विशदवार्तायाः अनन्तरम् अभवत्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् देशस्य डिजिटल पारिस्थितिकी तन्त्र नवाचाराय समावेशनाय च वैश्विकं मानकं संस्थापयति। अद्य सायं मुम्बय्यां ग्लोबल फिन्टेक फेस्ट इत्यस्य कार्यक्रमं सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् प्रौद्योगिक्याः लोकतन्त्रीकरणेन भारतं विशिष्टेषु समावेशि राष्ट्रेषु एकं प्रौद्योगिकी सम्पन्नं राष्ट्रमस्ति। सः प्रोक्तवान् यत् देशे प्रतिमासं यूपीआई इत्यस्य माध्यमेन 25 लक्ष कोटि रूप्यकाणां 20 अर्बुद संख्याकं धनादान प्रदानं भवति।
आज ये फेस्टिवल फाइनेंशियल इनोवेशन और फाइनेंशियल कोऑपरेशन का ग्लोबल प्लेटफॉर्म बन चुका है। इस बार इस फेस्टिवल में यूनाइटेड किंगडम एक पार्टनर कंट्री के रूप में शामिल है। दुनिया की दो बड़ी डेमोक्रेसीज के बीच ये पार्टनरशिप ग्लोबल फाइनेंशियल लैंडस्केप को और बेहतर बनाएगी।
ग्लोबल फिनटेक फेस्ट इत्येतत् सम्मेलनं सम्बोधयन् यूनाइटेड किंगडम इत्यस्य प्रधानमंत्री कीर स्टार्मर इत्यसौ अकथयत् यत् ब्रिटेन भारत देशो स्वाभाविक सहयोगिनो फिनटेक इत्यत्र वैश्विकाग्रण्यौ च स्तः। सः प्रोक्तवान् यत् भारत ब्रिटेन मुक्त व्यापार साहमत्यं द्वयोः देशयोः सकल गृहोत्पादं वृद्धिं प्रति नेष्यति। निर्वाचनायोगेन राजनीतिक दलानि निर्दिष्टानि सन्ति यत् तानि बिहार विधानसभायाः आगामिषु निर्वाचनेषु विधानसभायाः उपनिर्वाचनेषु च प्रचारावधौ प्रतिद्वन्द्विदलानि प्रत्याशिन च विरुध्य आर्टिफिशियल इंटेलिजेंस इति कृत्रिम बुद्धिमत्तायाः उपयोगं न कुर्युः। इमे दिशानिर्देशाः आदर्शाचार संहितायाः अन्तर्गतं प्रख्यापिताः सन्ति। आयोगेन सामाजिक सन्देशपटलेषु अन्येषु विविध विज्ञापनेषु च सूचनाः विकृतं कुर्वन्ति भ्रामक सूचनां प्रसारयन्ति च उपकरणानि विरुध्य सञ्चेतना प्रदत्ता अस्ति। रेलमन्त्री अश्विनी वैष्णवः वैश्विक समस्यानां मध्ये एकं विकसितं भारतं निर्मातुं बलं प्रायच्छत्। अद्य गुजरातस्य मेहसाणा जनपदे प्रथमवारं आयोजिते जीवन्त गुजरात क्षेत्रीय सम्मेलनं सम्बोधयन् श्रीवैष्णवः गुजरातस्य उल्लेखनीयां औद्योगिक प्रगतिं प्रकाशितवान्। सः प्रोक्तवान् यत् विगतेषु 11 वर्षेषु राज्येण सेमीकण्डक्टर इलेक्ट्रॉनिक्स इत्यनयोः क्षेत्रयो बृहद्रूपेण वृद्धि अधिगता अस्ति। सहैव तेन स्वकीये रेलवे नेटवर्क इत्यस्मिन्नपि व्यापको विस्तारः कृतः अस्ति। गृहमन्त्री अमितशाहः नवदिल्ल्यां जम्मूकश्मीरे सुरक्षास्थितिं समीक्षितुम् उच्चस्तरीयस्य उपवेशनस्य अध्यक्षताम् अकरोत्। मध्यप्रदेशस्य विशेषान्वेषणेन दलेन तमिलनाडु आरक्षक दलेन च अद्य प्रातः कांचीपुर क्षेत्रे श्रीशन फार्मेसी संस्थायाः स्वामी जी रंगनाथन इत्येषः विषाक्त कफरोधक औषध निर्माणार्थं निगडितः। अस्य औषधस्य सेवनेन तावत् राजस्थान मध्यप्रदेशयो बहवः बालकाः मृत्युमुपगताः। मध्यप्रदेशस्य विशेषान्वेषणदलेन राज्य आरक्षकैश्च सह चेन्नई नगरस्य कोण्डब्बकलस्थात् तस्य अवसरात् निगृहीतः। हंगेरियन उपन्यासकारः पटकथा लेखकः च लाजलो क्रास्जानाहोरकाई इत्येषः 25-उत्तर-2000तमवर्षस्य साहित्यस्य नोबेल पुरस्कारं प्राप्तवान्। महिलानाम् एकदिवसीय क्रिकेट विश्वचषके भारतं विशाखापत्तनम् इत्यत्र दक्षिण अफ्रीकादलं विरुध्य अन्तिमसूचना प्राप्तिं यावत् 6 क्रीडकानां हानौ 24-उत्तर-100 धावनांकैः सह 33तमस्य कन्दुक प्रक्षेपक चक्रस्य क्रीडां क्रीडति। इतः पूर्वं दक्षिण अफ्रीका दलेन पणकं विजित्य क्षेत्ररक्षणस्य विकल्पं चितम् आसीत्, यस्मिन् वृष्टिकारणेन विलम्बो जातः। अवधेयं यत् भारतीय दलेन प्रतिस्पर्धायाः शुभारम्भः श्रीलंका पाकिस्तान दलयोरुपरि विजयम् अधिगत्य कृता अस्ति। इति वार्ताः।